रामं रत्नकिरीटकुण्डलयुतं केयूरहारान्वितम् सीतालङ्कृतवामभाग ममलम् सिंहासनस्थं विभुम् सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं तदा विश्वामित्रः पराशरादि मुनिभिः संस्तूयमानं भजे।